अथ द्वादशोऽध्यायः। अर्जुन उवाच एवं सततयुक्ताये भक्तास्त्वं पर्युपासते ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः। श्रीभगवानुवाच मय्या वेश्यमनो ये मां नित्ययुक्ता उपासते श्रद्धया परयोपेता ते मे युक्ततमो मताः। ये त्वक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते सर्वत्र गमचिन्त्यम् च कूटस्थमचलम् ध्रुवम् सन्नियम्येन्द्रियग्रामम् सर्वत्र समबुद्धयः त्रिप्राप्नुवन्ति मामेव सर्वभूतहिते रताः। क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखम् देहवाद्भिरवाप्यते। ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येनैव योगेन माम् ध्यायन्त उपासते तेषाम् अहम् समुद्धर्ता मृत्युसंसारसागरा भवामि नाचिरात् पार्थ। मय्यावेशितचेतसाम् मय्येव मन आधस्त्व मयि बुद्धिम् निवेशय निवशस्यस्य मय्येव अथ ऊर्ध्वम् न संशयः। अथ चित्तम् समाधातुम् न शक्नोऽसि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छातुम् धनञ्जय। अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि। अथैतदप्यशक्तोऽसि कर्तुम् मद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुरु यतात्मवान्। श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानम् विशिष्यते ध्यानात् कर्मफलत्याग त्यागाक्षान्तिरनन्तरम्। अत्वेष्टा सर्वभूतानाम् मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःखः सुखक्षमि सन्तुष्टः सततम् योगे यतात्मा दृढनिश्चयः। मय्यार्पितमनो बुद्धिर्यो मद्भक्त स मे प्रियः। यस्मान्नो द्विजते लोको लोकान्नो द्विजतेश्च यः हर्षाहर्षभयोद्वेगे मुक्तो यस च मे प्रियः। अनपेक्षसुचिर्दक्ष उदासीनो गतव्यतः सर्वारम्भपरित्यागी यो मद्भक्त स मे प्रियः। यो न रिष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभः परित्यागी भक्तिमान्यः स मे प्रियः। समः शत्रोश्च मित्रेश्च तथा मानपमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः। तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेतस्थिरमतिर्भक्तिमान्मे प्रियो नरः। ये तु धर्म्यामृतमिदम् यथोक्त्वम् पर्युपासते श्रद्धदानामत्परमा भक्तास्ते त्रेव मे प्रियाः। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे ಶ್ರೀಕೃಷ್ಣಾರ್ಜುನ ಸಂವಾದೇ ಭಕ್ತಿಯೋಗೋ ನಾಮ ದ್ವಾದಶೋಧ್ಯಾಯಃ.